शनैस्तित्वा मोहां बुद्धिमत समारोढ़ मनसः क्रमात् कैवल्याख्यां सुकृति सुलभां सौतवलभीं लभन्ते निःश्रीणीं मिव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमदन सीमन्तिनी जनाः प्रचण्डादिक्षोभ प्रमदन कृते प्रादिवसरीत् प्रवाह प्रोत्तण्डीकरण जलताय प्रणमताम् प्रदीपाय प्रौढेम् भवतमसि कामाक्षि चरणम् प्रसादोन्मुख्याय स्पृहयति जनोऽयं जननि ते मारुद्भिः संसेव्यां सततमपि साञ्चल्यरहिता सदारुण्यं यान्तीं परिणति दरिद्रान् सुषुमां गुणोत्कर्षान्माञ्जीरकम् कलकलैस्तर्जनपटुः प्रवालं कामाक्ष्याः परिहसति पादाब्जयुकलीम्।